नमस्सर्वेभ्यः अद्य लघुसिद्धान्तकौमुद्याः समासप्रकरणे पञ्चमः पाठः अद्य अव्ययीभावसमासे अन्येषु अर्थेषु अव्ययीभावसमासः कथं भवति इति पश्यामः येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मिमुनित्रयम् नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्। आदौ पठामः अव्ययीभावसमासादारभ्य पठामः।
अहं पठामि वा? अनु
न पठतु, भवती एव पठतु।
अव्ययीभावः अधिकारः अयं प्राक् तत्पुरुषात् अव्ययं विभक्ति समीप समृद्धि विरुद्धि अर्थभाव अत्ययव सम्प्रति शब्दप्रादुर्भाव न श्रूयते शब्दप्रादुर्भाव पश्चात्
पृष्ठतः कश्चित् शब्दः श्रूयते
खलु तत्
अनुपूर्व्यागपद्य
आनुपूर्य योगपद्य सादृश्य सम्पत्ति साकल्य अन्तवचनेषु विभक्ति अर्थादिषु वर्तमानम् अयं सुबन्तेन अव्ययं सुबन्तेन सह नित्यं समस्यते सः अव्ययी भावः प्रायेण अविग्रहः नित्यसमासः प्रायेण अश्वपदविग्रहः वा विभक्तौ हरि नी अधि इति स्थिते।
धन्यवादः मातङ्गी। मातङ्गी यू हैव टू अनम्यूट योरसेल्फ। नीरज भगिनी पठति वा?
आम्। प्रथमानिर्दिष्टं समास उपसर्जनं समासशास्त्रे प्रथमानिर्दिष्टं उपसर्जनं संज्ञं स्यात्। उपसर्जनं पूर्वं समासे उपसर्जनं प्राक् प्रयोज्यम् इत्यधेः प्राक् प्रयोगः सुपोलुक् एकदेश विकृत विकृतस्यानन्त्य एकदेशविकृतस्यानत्यत्वात् प्रातिपदिकसंज्ञायां स्वाद्युत्पत्तिः अव्ययीभावश्चेत् अव्ययत्वात् सुपोलुक् अधि हरि।
अन्म्यूट् करणीयम्। Can you click on the microphone? I think you have to unmute yourself. There is a microphone symbol.
Avyayi Bhavas.
I think it got muted again. Disconnect after that. राघवी
व्ययी भावश्च अयं नपुंसकं स्यात् न व्ययी भावात् अतो अपञ्चम्याः अदन्ताद् अव्ययी भावात् सुपो नलुक् तस्य पञ्चमीं विना अमादेशश्च स्यात् काः पातीति गोपाः तस्मिन् इति अधिगोपम्
अग्रे
द्वितीया सप्तम्योर्बहुलम्
एकमेव वाक्यमस्ति समापयतु
अदन्तादव्ययी भावात् तृतीया सप्तम्योर्बहुलम् अम्भावस्य अधिगोपम् अधिगोपेन अधिगोपे वा
धन्यवादः ह्यः अदन्त अव्ययीभावानां प्रक्रिया अधीता तत्र केषाञ्चन पदानाम् अव्ययीभावे किं भवति इति पृष्टमासीत् जस्ट् वन् मोमेण्ट् एतेषां विभक्त्यर्थे अव्ययीभावसमासे किं रूपं भवति इति प्रेषितं वृक्षे इत्यस्य किं भवति भवन्तः एव वदन्तु
अधिवृक्षं
वृक्षे यत्र अधिवृक्षम्
अधिवृक्षेण पञ्चमी अधिवृक्षा
तृतीया केवलम् अधिवृक्षेण
अधिवृक्षम् आर् अधिवृक्षेण
प्रथमाविभक्तौ अधिवृक्षम् इति रूपं तृतीयायाम् अधिवृक्षम् अधिवृक्षेण पञ्चमी विभक्तौ अधिवृक्षात् गृहे
गृहे अधिगृहं तृतीय अधिगृहम् और् अधिगृहेण और् पञ्चमी अधिगृहात्
अधिगृहम् अधिगृहम् अधिगृहेण अधिगृहात् शालायाम्
अधिशालम् अधिशालम् अधिशालेन अधिशालात्
सम्यक् अधिशालम् इति प्रथमा अधिशालम् अधिशालेन द्वितीया अधिशालात् इति सप्तमी नौकायां एनिबडि नौकाशाला समानं वस्तुतः अधिनौकम् अधिनौकम् अधिनौकेन अधिनौकात् सो नद्याम् अत्र किं भवति इदे फ्लो ले पोयटा इफ् वि गो इन् द सेम् फ्लो यु गेट् द अम् बट् द मेन् थिङ्ग् अमादेश इस् ओन्ली फार् अकारान्त आर् या adanta so even if it is dirgha you get a hrasva and it is only for adanta for the others it is just subluk avyayad apsupah itinena subluk bhavati hrasvah bhavati adhinadi ityasti hrasvo napumsake pratipadikasya iti hrasvah subluk so adhinadi sarvasu vibhaktishu samanam rupam कुत्रापि भेदः न भवति अदन्तेषु एव अन्यासु विभक्तिषु भेदः भवति अन्य अन्तेषु
विभक्तौ भेदः न भवति सर्वासु विभक्तिषु अधिनदि इत्येव रूपम् वध्वाम् राघवी अधिवधु इत्येव पितरि अधिपितृ मातरि कर्तरि
अधिकर्तृ
अत्र सर्वत्र अधिपितृ वधु अधिपितृ अधिमातृ अधिकर्तृ भगिनि वाट् इस् गवि गो इति गो इत्यस्ति तत्र किं भवति एनिबडी वांट्स टु गेस
अधिगौ
अधिगौ अधिगवम
अधिगवम यू डोंट गेट अमादेश बिकॉज़ देयर इज नो अदंत अदंतादेव अमादेशः I said if it is not adanta there is only one thing happens what happens
adigo
hrasva hrasva napumsake pratipadikasya but what is the hrasva for go o ille sanskritam does not have the short o yes matangi she thought for what
yes एच इघ्रस्वादेशे इत्यनेन एचः ह्रस्वः तु इक् वर्णाः सो फोर् ओकार इट् इस् उकार देयरफोर अधिगु
सो एच इघ्रस्वादेशे इति सूत्रमस्ति एचः सारि बेड् रैटिङ्ग् बट् एचः इक् ह्रस्वादेशे वेरेवर् वि आर् डूयिङ्ग् ह्रस्व यदा एच् वर्णानाम् ए ओ ऐ औ एतेषां ह्रस्वः क्रियते तदा इक् वर्णः भवति अर्थात् ए ऐ एतयोः इकारः भवति ओ औ एतयोः उकारः भवति इति नियमः अत एव नपुंसकलिङ्गे एजन्ताः न भवन्ति भगिन्या उक्तं नपुंसकलिङ्गे न सन्ति इति यतोहि सर्वत्र ह्रस्वो नपुंसके प्रातिपदिकस्य इत्यनेन ह्रस्वः भवति यदि ह्रस्वः भवति तर्हि इक् अतः अधि गो इति स्थिते ह्रस्वे कृते अधिगु एवम् अधिनौ अत्र किं भवति
अधिनु
अधिनु अधिरै
अधिरि
अधिरि अधिगु अधिनु अधिरि इति भवति ह्रस्व यदा एच् वर्णानां ह्रस्वः क्रियते तदा इग्वर्णाः भवन्ति इति स्मर्तव्यम् अन्यः विशेषः नास्ति अग्रे गच्छामः
वन् डौट् अका इफ् फार् ए एण्ड् ऐ बोत् द ह्रस्व इस् इकार एण्ड् फार् ओ एण्ड् औ बोत् द ह्रस्व इस् उकार वै डस् ही गिव् द प्रत्याहार देयर् इस् इक् एण्ड् नाट् इन् ओर् समथिङ्ग् Why does he include rikara and likara as well?
We don't have a pratyahara in which uses only e and u. In grahanam sarvada parena nakarena. In is always with till, lan, e, u, rulu, etc. The shortest pratyahara starting from e is ik.
Okay.
Shubhavadi. प्रश्नः अस्ति वा यु आर् अन्म्यूटेड् यू केन् आस्क् नो सो अग्रे गच्छामः एतत्तु अग्रिमसप्ताहे लिखन्तु इदानीं स्पष्टं स्यात् अमादेशः अदन्तानामेव आकारान्तः अस्ति चेत् ह्रस्वं कृत्वा अमादेशः अकारान्तः अस्ति चेत् अमादेशः अन्यत्र सर्वत्रापि ह्रस्वः लोपः इत्येव एतेषां सर्वेषामपि लिङ्गं किं भवति इति प्रश्नः लिङ्गं नपुंसकमेव सर्वत्र अव्ययीभावसमासस्य नपुंसकलिङ्गमेव इदानीम् अस्मिन् पाठे अन्येषु अर्थेषु अव्ययीभावसमासः भवति. अस्माभिः सूत्रं किमासीत्? अव्ययं विभक्तिसमीपसमृद्धिविरुद्ध्यर्थाभावाच्यया सम्प्रति शब्दप्रादुर्भावपश्चाद्यथानुपूर्ययोगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु इति सूत्रम् अग्रिमसप्ताहे सर्वैः कथयिष्यते. इदानीं तत्र विभक्ति इत्यंशः एव दृष्टः. विभक्त्यर्थे अव्ययीभावः कथं भवति इति, अन्येषु अर्थेषु अव्ययीभावसमासः कथं भवति, किम् उदाहरणम् इति अद्य पश्यामः. षोडश अर्थाः सन्ति: विभक्ति, समीप, समृद्धि, विरुद्धि, अर्थाभाव, अत्यय, असम्प्रति, शब्दप्रादुर्भाव, पश्चात्, यथा, आनुपूर्व्य, यौगपद्य, सादृश्य, सम्पत्ति, साकल्य, अन्तवचनेषु. तत्र समीप अव्ययं विभक्ति इति कृतं. समीप इति द्वितीयः अर्थः. कृष्णस्य समीपम् उपकृष्णम् इत्यर्थः दीयते. समीपं निकटं सर्वैः ज्ञायते. सो समीपार्थे उप इति अव्ययं भवति. उप इति अव्ययस्य कृष्णम् इति, कृष्णस्य इति सुबन्तेन सह समासः. सो प्रक्रियां पश्यामः. कृष्णस्य समीपम् इति विग्रहः, लौकिकविग्रहः. कृष्ण नत् उप इति अलौकिकविग्रहः. अव्ययं विभक्तिसमीपसमृद्धिविरुद्धि इत्यादिना अव्ययीभावसमासः. सुपोधातुप्रातिपदिकयोः इत्यनेन सुपः लुकि, कृष्ण उप. उपसर्जनं पूर्वम्. अत्रापि अव्ययम्, अव्ययम् इति सूत्रे अव्ययम् इति प्रथमानिर्दिष्टम्. प्रथमानिर्दिष्टत्वात् उपसर्जनम्, अतः उप इति अव्ययस्य उपसर्जनसंज्ञा अस्ति. उपसर्जनं पूर्वम् इत्यनेन पूर्वनिपाते उप कृष्ण. उपकृष्ण सु, सु औजस् इत्यादिना सुप्रत्ययः. नाव्ययीभावादतो अंस्वपञ्चम्याः इत्यनेन अदन्तत्वात् सोः अमादेशः. उपकृष्ण अम् अमिपूर्वः इत्यनेन पूर्वरूपे उपकृष्णम्. कृष्णस्य समीपम् उपकृष्णम् इति समीपार्थे अव्ययीभावः. समीप अग्रिममस्ति समृद्धि. अव्ययं विभक्ति समीप समृद्धि. मद्राणां समृद्धिः सुमद्रम् इति उदाहरणम्. समृद्धिः वृद्धेः आधिक्यम्, टैपो आधिक्यम्. सो एक्सेसिव प्रॉस्पिरिटी इज कॉल्ड समृद्धि. मद्राः इति मद्रदेशस्य जनाः इत्यर्थः. मद्राणां समृद्धिः इत्यर्थे, समृद्ध्यर्थे सु इति अव्ययं मद्रशब्देन सह समस्यते. सुमद्रम्, सुमद्र अत्रापि अदन्तत्वात् अमादेशः भवति. सुमद्रम् सर्वत्रापि पृथक् प्रक्रिया वक्तव्या नास्ति, समानरीत्या प्रक्रिया भवति. यत्र यत्र अदन्तत्वं तत्र अमादेशः भवति. किम् अव्ययम् इत्येव स्मर्तव्यम्. मद्राणां समृद्धिः सुमद्रम्. सु समृद्ध्यर्थे सु इति अव्ययं, मद्राणाम् इति सुबन्तेन सह समस्यते. प्रोस्पिरिटि आफ् द मद्रास्. Madras is like Indians, if you say in prosperity of Indians. So madradeshasya janaha madraha. Yavananam viruddhihi. Viruddhi, viruddhi. Samruddhehe viruddhartakam padam viruddhihi. Vruddhehe abhavaha ityarthaha. Vruddhehe adhikyam samruddhihi. Vruddhehe abhavaha viruddhihi. सो डिक्लैन् इत्यर्थः. यवनानां विरुद्धिः, विगतारुद्धिः, विरुद्धिः. दे वर् प्रोस्परस् बट् नौ दे हेव् डिक्लैन्ड् इत्यर्थे दुर्यवनम्. विरुद्ध्यर्थे दुर् इति अव्ययं यवनशब्देन सह समस्यते. दुर्यवनं, यवनानां विरुद्धिः. अव्ययं समीप विभक्ति समीप समृद्धि विरुद्धि अर्थाभाव अर्थाभावः तर्कशास्त्रे अतीतं स्यात् अभावः नाम असत्ता एब्सेंस सो अर्थः नाम पदार्थः कस्यचित् पदार्थस्य अभावः अर्थाभावः इति कथ्यते यथा मक्षिकाणाम् अभावः निर्मक्षिकम् एब्सेंस ऑफ फ्लाइज मक्षिकाणाम् अभावः अभावार्थे निर् इति अव्ययम् मक्षिका शब्देन समस्यते सो निर्मक्षिका ह्रस्वोनपुंसके प्रातिपदिकस्य निर्मक्षिक नाव्ययीभावात् अतो अम्त्वपञ्चम्याः इत्यनेन अमादेशे निर्मक्षिकम् अव्ययम् विभक्ति समीप समृद्धि विरुद्धि अर्थाभावाः एतानि उदाहरणानि स्मर्तव्यानि स्टैंडर्ड एग्जांपल्स अन्यानि उदाहरणानि भवन्ति किन्तु मुख्यं यद् उदाहरणमस्ति तत्तु सर्वदा स्मर्तव्यम् सो समीप समृद्धि वृद्धि अर्थाभाव एतद् दृष्टम् अत्यय असंप्रति शब्द प्रादुर्भाव पश्चात् अत्ययः अत्ययः नाशः अत्यय इज डिस्ट्रक्शन सो हिमस्य अत्ययः अतिहिमम् एषु दिनेषु सर्वत्र दृश्यते ग्लोबल वार्मिंग इति कारणेन हिमस्य अत्ययः नाशः अत्ययः इत्यर्थे अति इति अव्ययम् हिमशब्देन समस्यते अत्र केषु केषु अर्थेषु किम् अव्ययम् समस्यते इत्यत्र नियमः नास्ति प्रयोगम् आश्रित्य ज्ञातव्यम् सामान्य अर्थाः तु अस्ति अधि इत्यस्य सप्तम्यर्थः प्रसिद्धः उप इत्यस्य समीपार्थः प्रसिद्धः सु इति अव्ययम् सामान्यतः उत्तमम् समृद्धि इत्यादि द्योतयति दुर् इति तु तदपि ज्ञायते नेगेटिव् अर्थे एव प्रयुज्यते निर् इति अभावम् द्योतयति सो सामान्यतः एते अर्थाः ज्ञायन्ते विशिष्य एषः विग्रहः स्मर्यते चेत् कः अर्थः इति ज्ञायते हिमस्य अत्ययः हिमस्य नाशः अतिहिमम् हिमशब्दः अपि अदन्तः अतः अमादेशः भवति असंप्रति असंप्रति सम्प्रति इत्युक्ते योग्यः कालः न सम्प्रति नाम अयोग्यः कालः इत्यर्थः उदाहरणं दीयते निद्रा सम्प्रति न युज्यते इति अतिनिद्रम् अतिनिद्रम् इत्युक्ते उदाहरणार्थं कुत्रचित् से फोर्ट् दुर्गमस्ति तत्र शत्रूणाम् आक्रमणस्य सम्भवः अस्ति तदा किं वदन्ति सैनिकाः अतिनिद्रम् इत्युक्ते इदानीम् अति जागरूकैः भवितव्यम् निद्रायाः कालः न इत्यर्थः निद्रा सम्प्रति न युज्यते इति अतिनिद्रम् अत्र कश्चित् प्रश्नः वृद्धिः अत्ययः इति समानार्थकं वा इति न विरुद्धिः इस् डिक्लैन् इट् इस् नाट् डिस्ट्रक्षन् सम्पूर्णतः नाशः इत्यर्थः न पूर्वं समृद्धिः आसीत् इदानीं सा समृद्धिः क्रमेण क्षीयते इत्येव अर्थः विरुद्धिः इत्यस्य उत्तमः कालः न बैड् टैम्स् इति यदुच्यते तदेव विरुद्धिशब्दस्य अर्थः अत्ययशब्दस्य तु नाशः इत्यर्थः अर्थभेदः अस्ति अपि च अतिहिमम् अतिनिद्रम् निद्रायाः नाशः अपि अतिनिद्रम् भवितुम् अर्हति सो प्रसङ्गम् आश्रित्य एव समासस्य अर्थः ज्ञातव्यः एतत्तु सर्वदा उच्यते एकम् प्रसिद्धम् उदाहरणमस्ति कश्चित् भिक्षुकः भवति सः राज्ञः समीपे आगत्य वदति अहञ्च त्वं च राजेन्द्र लोकनाथावुभावपि अहमपि लोकनाथः त्वमपि लोकनाथः इति भिक्षुकः वदति कथं तत् बहुव्रीहिरहं राजं षष्ठी तत्पुरुषो भवान् भवान षष्ठी तत्पुरुषः लोकस्य नाथः लोकनाथः भवान अहम् तु लोकः नाथः यस्य सः इत्युक्ते लोकः एव मम नाथः माम् पालयति अतः केवलं समस्त पदं दृष्ट्वा तस्य अर्थः न ज्ञायते प्रसङ्गवशादेव समस्तपदस्य अर्थः ज्ञातव्यः इदानीम् अतिनिद्रम् इत्युक्ते निद्रायाः नाशः वा निद्रायाः अत्ययः अपि अतिनिद्रं भवितुम् अर्हति निद्रा सम्प्रति न युज्यते इत्यपि अतिनिद्रं भवितुम् अर्हति कः अर्थः विवक्षितः तस्मिन् प्रसङ्गे कः अर्थः भवति इति ज्ञातव्यम् अग्रे अत्यय असंप्रति शब्दप्रादुर्भावः शब्दप्रादुर्भावः शब्दस्य प्रकाशः कश्चित् शब्दः पुनः पुनः उच्यते उदाहरणार्थं यदि मार्गशीर्षमासः मार्गळि आसीत् अत्र कुत्रापि प्रातःकाले बहिः गम्यते चेत् सर्वत्र भजनं सर्वत्र इति हरि इत्युक्ते हरिशब्दस्य प्रकाशः सर्वत्र हरि 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 इति उच्चैः पुनः पुनः यत्र श्रूयते सः इति हरि इति कथ्यते हरिशब्दस्य प्रकाशः मार्गशीर्षमासे यदि वयं कुत्रापि मन्दिरं गच्छामः प्रातःकाले तत्र इति हरि भवत्येव यतोहि सर्वत्र हरिहरि इति शब्दस्य प्रकाशः पुनः पुनः श्रवणं भवति उच्चारणं भवति इत्यर्थः विष्णोः पश्चात् अव्ययं विभक्ति समीप समृद्धि वृद्धि अर्थाभाव अत्यय असंप्रति शब्दप्रादुर्भाव पश्चात् पश्चात् अनन्तरम् इत्यर्थः विष्णोः पश्चात् अनु विष्णु अत्र अनु विष्णु इति हरि उभयत्रापि अदन्तं न अतः अव्ययादाप्सुपः इत्यनेन सुपः लुक् भवति अनुविष्णु अनुविष्णु असुरः धावति विष्णुः अग्रे गच्छति तस्य पृष्ठतः कश्चित् असुरः धावति अथवा अनुविष्णु सुराः गच्छन्ति यत्किमपि प्रसङ्गमाश्रित्य प्रयोक्तुं शक्यते अव्ययं विभक्तिसमीप समृद्धिवृद्ध्यर्थाभावात्यया सम्प्रति शब्दप्रादुर्भाव पश्चात् अत्र एका प्रक्रिया कोऽपि वक्तुमिच्छति वा निद्रा सम्प्रति न युज्यते कथं प्रक्रिया भवति कोऽपि वक्तुमिच्छति हस्तमुन्नयनं सरलमेव विशेषः कोऽपि नास्ति एतावता यदधीतं तदेव
प्रथमं लौकिकविग्रहम् अति
विग्रहः
अतिनिद्रम्
न निद्रा सम्प्रति न युज्यते इति लौकिकः लौकिकः कथं भवति निद्रा नस् अति
नस् अपि अदि सुपो धातु प्रातिपदिकयोः इति लुक् नस् लोपः भवति अतः निद्रा अति
निद्रा अति सुपोधातु प्रातिपदिकयोः इति सुब्लुक्
उपसर्जनं पूर्वं अतः अति निद्रा
उपसर्जनं पूर्वम् इत्यनेन अति इत्यस्य पूर्वनिपाते अतिनिद्रा
ह्रस्वः भवति निद्रायाः
सूत्रम्
ह्रस्वो
नपुंसके प्रातिपदिकस्य इत्यनेन ह्रस्वे अतिनिद्र
अतिनिद्र सुऔजस् अमौषस् इति सूत्रेण अधि गो अधि निद्रा सु
अति निद्रा सु
अनन्तरं सु अपि अति निद्रा एव खलु अति
अदन्तम्
अदन्तम् अतः अमादेशः अतिनिद्रा
सूत्रम्
सूत्रम्
नाव्ययी भावात् अतो अम् तु अपञ्चम्याः इति सूत्रेण अमादेशः अतिनिद्रा अम् अनन्तरं किं भवति अ प्लस् अ अस्ति इतोपि एकम्
आम् अमिपूर्वः
अमिपूर्वः इत्यनेन पूर्वरूपे अतिनिद्रम् सम्यक् बहु उत्तमम् सो निद्रा सम्प्रति न युज्यते एतत् स्मर्तव्यं सामान्यतः अलौकिकविग्रहवाक्ये अत्र अव्ययीभावसमासे अलौकिकविग्रहवाक्ये षष्ठी विभक्तिः एव भवति सामान्यसम्बन्धसामान्ये षष्ठी इति नियमात् सामान्यतः तत्र एक्सेप्शन्स् अस्ति अग्रे उच्यते किन्तु सामान्यतः षष्ठी विभक्तिः एव भवति सर्वत्रापि कृष्णाङ्गत् उप विभक्त्यर्थे तु सप्तमी विभक्तिः तद्विहाय अन्यत्र अभावः मक्षिका आम् निर् तत्र बहुवचनम् ङस् ओस् आम् पूर्वं पश्यामः हिमस्य अत्ययः इत्युक्ते हिमा ङस् अति निद्रा ङस् अति हरिशब्दस्य प्रकाशः हरि ङस् इति विष्णु ङस् अनु सामान्यतः षष्ठी विभक्तिप्रत्ययः एव योजनीयः यदि बहुवचनमस्ति तर्हि आम् भवति मद्राणां समृद्धिः मद्र आम् सु यवन आम् दुर् मक्षिका आम् निर् षष्ठी विभक्तौ एकवचनं वा बहुवचनं वा भवति अलौकिकविग्रहे तत् स्मर्तव्यम् अग्रे गच्छामः अव्ययम् विभक्ति समीप समृद्धि विरुद्धि अर्थाभाव अत्यय असंप्रति शब्दप्रादुर्भाव पश्चात् यथा अग्रिमं पदमस्ति यथा इति यथा इत्यस्य कः अर्थः यथा इत्यस्य चत्वारः अर्थाः सन्ति योग्यता वीप्सा पदार्थ अनतिवृत्ति सादृश्यानि यथार्थाः एतेषु चतुर्ष्वपि अर्थेषु अव्ययीभावसमासः भवति इत्यर्थः योग्यता वीप्सा पदार्थानतिवृत्ति सादृश्यानि यथार्थाः तत्र योग्यता इत्युक्ते किम् अर्हता डिजर्विङ्ग् इत्यर्थः रूपस्य योग्यम् अनुरूपम् अनुरूपम् इति शब्दः अस्माभिः बहुधा प्रयुज्यते तत्र रूपस्य योग्यम् अस्य यद्रूपं तस्य योग्यम् एव अनुरूपं भवति तत्र अनु इत्यनेन योग्यता इत्येषः अर्थः उच्यते रूपस्य योग्यम् अनुरूपम् रूप ङस् अनु अनुरूप अदन्तत्वात् अमादेशः अर्थमर्थं प्रति प्रत्यर्थं बहु प्रसिद्धं प्रसिद्धः अयं समासः वीप्सा वीप्सा पौनःपुन्यं रिपिटिशन् इत्यर्थः पुनः पुनः क्रियते अर्थमर्थं प्रति बहवः अर्थाः सन्ति प्रत्यर्थं प्रतिदिनं दिनं दिनं प्रति सो एव्रीडे किमपि कार्यं पौनःपुन्येन क्रियते दिने दिने अथवा दिनं दिनं क्रियते तत् प्रत्यर्थं प्रतिदिनम् इत्यादि उच्यते तत्र अर्थः भवति दीप्सा अथवा पौनःपुन्यम् पदार्थ अनतिवृत्तिः, पदार्थ अनतिवृत्तिः इत्युक्ते अनतिक्रमः, नाट् एक्सीडिङ्ग्, यथाशक्ति, शक्तिम् अनतिक्रम्य, यावती शक्तिः अस्ति तावत् क्रियते, शक्तिम् अतिक्रम्य गन्तुं न शक्यते, अतः यथाशक्ति, शक्तिम् अनतिक्रम्य, नाट् गोयिङ्ग् बियाण्ड् द शक्ति, यथाशक्ति, इकारान्तत्वात् सुब्लुक् भवति यथाशक्ति इत्येव. सो शक्तिम् अनतिक्रम्य यथाशक्ति. सादृश्यम्, योग्यता वीप्सा पदार्थ अनतिवृत्ति सादृश्यानि, सादृश्यम् औपम्यम्, सिमिलारिटि इत्यर्थः. हरेः सादृश्यम्, सिमिलारिटि आफ् हरि, तत्र सहरि इत्यस्ति. तत्र प्रक्रिया किञ्चित् द्रष्टव्या, ततः पूर्वम् अर्थमर्थं प्रति. अत्र कथं प्रक्रिया भवति, कोऽपि वदति? अर्थमर्थं प्रति कथं प्रक्रिया भगिनी? You have to unmute yourself. माइक्रोफोन् चिह्नं भवति, तत् नोदनीयम्. इदानीम् एकवारं नुदतु. वाट् हेपन् क्लिक् आन् द मैक्रोफोन् न भवति वा? समस्या इति न ज्ञायते. अत्र तु सेल्फ् म्यूटेड् इत्येव दर्शयति. अस्तु राघवी. शुभा भगिनी, मध्ये अन्म्यूट् आसीत्, इदानीं पुनः म्यूटेड् इति दर्शयति.
इदानीम् आगच्छति भगिनि. नमस्ते. नमस्ते.
वदतु भगिनि.
अर्थ सु प्रति इति अलौकिकविग्रहः.
अर्थ अम् प्रति द्वितीया विभक्तिः. कारकरणे अधीतम् भूताख्यानभागवीप्सासु, वीप्सार्थे प्रति इत्यस्य कर्मप्रवचनीयसंज्ञा अस्ति, अतः द्वितीया विभक्तिः भवति. अर्थ अम् प्रति इति अलौकिक विग्रहः.
तत्र सुपो धातु प्रातिपदिकयोः इति अर्थ प्रति. पुनः प्रथमा निर्दिष्टं समास उपसर्जनम्, उपसर्जनं पूर्वम् इति प्रति अर्थ. तत्र सन्धि कुर्मः चेत् प्रत्यर्थ इति भवति.
सूत्रम्
इको यणसि,
इको यणसि इत्यनेन यणादेशः.
तदनन्तरं स्वौजस् इत्यनेन अस्माकं सः प्रत्ययः प्रत्यर्थासु इति. पुनः अव्ययीभावश्च इति अव्ययसंज्ञां प्राप्य अव्ययात् आप् सुपः इति सुपः लुक् भवति, अतः प्रत्यर्थः
लुक् भवति वा अत्र?
न न अमादेशः अदन्तः इति कारणेन अमादेशः भवति अतः प्रत्यर्थम् इति भवति
सूत्रम्
सूत्रं भगिनि
न व्ययी भावात् अतो अन्त पञ्चम्याः
सत्यं भगिनि उत्तमम्
अहं जानामि इति तु ज्ञायते अनन्तरम्
तत्र प्रत्यय एत सुप्रकरणे तद् दीर्घ अभावः भवति अतः प्रत्यर्थम् इति भवति
इत्यनेन पूर्वरूपं भवति श्रवणेन भवति चिन्ता मास्तु मया तु दशभ्यः वर्षेभ्यः अधीयमानमस्ति अतः वक्तव्यमेव भवन्तः भवद्भिः अपि समासप्रकरणस्य अन्ते ज्ञातं भवेत् इति आशयः तावदेव अमिपूर्वः इत्यनेन पूर्वरूपं भवति प्रत्यर्थम् इति अग्रे यथाशक्ति सुधा भगिनि
यथाशक्ति सॉरी आई डोंट गेट
न प्रयत्नं करोतु चिन्ता नास्ति किं भवति अलौकिकविग्रहः शक्ति
शक्ति
षष्ठी विभक्तिः
शक्ति नस्
नस् आम् शक्ति नस् यथा सम्यक् शक्ति नस् यथा अव्ययं विभक्तिसमीप इति सूत्रेण समासः अग्रे
नस् विल् सुपो लुक् इति नस् विल् गेट् लोपः
सूत्रं सुपो
सुपो लुक्
धातुप्रातिपदिकयोः प्रातिपदिकयोः
यथाशक्ति बै सूत्रं
उपसर्जनम्
उपसर्जनं पूर्वम् ऐ डोण्ट् नो द सूत्रम् एक्चुलि
चिन्ता नास्ति उपसर्जनं पूर्वम् इत्यनेन पूर्वनिपातः यथा शक्ति
यथाशक्ति देन् यथाशक्ति सु स्वौ अं जस्
सु
इति सुप्रत्यय देन् सुप्रत्यय गेट् लोपः बै
अव्ययात् आप् उपः इति सूत्रं सूत्रेण लोपः यथाशक्ति इति रूपं प्रक्रियायां विशेषः कोऽपि नास्ति किन्तु सूत्रम् अवश्यं स्मर्तव्यं परीक्षादृष्ट्या वा सूत्रं नास्ति चेत् अङ्काः न लभ्यन्ते का सामान्यसूत्राणि यानि सन्ति तानि स्मर्तव्यानि एव तत्र नो आप्शन् अत एव तत्र क्लेशः अपि नास्ति पुनः पुनः अत्र षोडश अर्थाः सन्ति षोडश अर्थानामपि एकैकां प्रक्रियां लिखन्ति चेत् निश्चयेन सूत्रं मनसि तिष्ठति सन्देहः एव नास्ति किन्तु लिखित्वा अभ्यासः करणीयः. व्याकरणं गणितं, व्याकरण ईज लाइक मैथ, एस्पेशली इन प्रक्रिया. यू हैव टू राइट एंड प्रैक्टिस द स्टेप्स, देन ओनली यू विल रिमेंबर. अवगमनम् अस्ति अत्र समासप्रकरणे. अवगन्तुं किमपि नास्ति, अहम् इदानीमेव वदामि. स्मर्तव्यं केवलम् अवगमनं न, यदवगन्तव्यं तत्सर्वम् अवगतं. बेसिक् कान्सेप्ट्स् यदस्ति तत्. इतः परं किं भवति? केन सूत्रेण कस्य पदस्य कस्मिन् अर्थे समासः? तावदेव अस्ति समासप्रकरणे. कस्य शब्दस्य कः विशेषः? अन्यत् किमपि नास्ति. समासप्रकरणे अवगमनं किम्? सामर्थ्यं नाम किम्? कस्य समासः भवति? समासे पूर्वोत्तरपदयोः निर्णयः कथम् इत्यादि केचन एव अंशाः. अधिकाः अंशाः कस्य केन सूत्रेण समासः भवति, कस्मिन् अर्थे भवति, कस्य पदस्य कः विशेषः, तत्र सूत्रस्मरणमेव प्रधानम्. अभ्यासेन आगच्छति. तत्र कृष्णेन यत् फार्मुला दत्तं तत् सर्वत्र अन्वेति. अभ्यासेन तु कौन्तेय, वैराग्येण च सिद्ध्यति. अध्ययने अभ्यासः, अन्यत्र सर्वत्र वैराग्यम् अस्ति चेत् निश्चयेन सिद्ध्यति. शक्तिम् अनतिक्रम्य यथाशक्ति. अत्र तु शक्तिम् अतिक्रम्य एव अभ्यासः करणीयः. यथाशक्ति अभ्यासं करोमि चेत् न आगच्छति. शक्तिम् अतीत्य एव व्याकरणे श्रमः ओढव्यः. अस्तु, अग्रे हरेः सादृश्यम् इत्यस्ति. सादृश्यार्थे अव्ययीभावः. तत्र हरि ता सः इति अलौकिकम्. किमर्थं टा प्रत्ययः? कोऽपि वक्तुं शक्नोति वा? जानन्ति भवन्तः, भवत्यः वा? सर्वाः जानन्ति एव. सहयुक्ते अप्रधाने इति. सः इति अव्ययं यत्र भवति तत्र तृतीया विभक्तिः भवति. अतः टा इति तृतीया विभक्तिप्रत्ययः. हरि टा सः अव्ययं विभक्तिसमीप इत्यादिना समासः. उपोधातुप्रातिपदिकयोः इति सुपः लुक्. हरि सः उपसर्जनं पूर्वम् इत्यनेन पूर्वनिपाते. सः हरि इदानीं किं भवति? वस्तुतः सः हरि इति भवेत्, किन्तु रूपं किमस्ति? स हरि इत्यस्ति. तत् कथं भवति इत्यत्र एकं सूत्रमस्ति. अव्ययीभावे चाकाले, अव्ययीभावे च अकाले इति पदत्रयमस्ति. अव्ययीभावे इति सप्तमी, अकाले इत्यपि सप्तमी. सहस्य सः इति अनुवर्तते. सहस्य इति षष्ठी, सः इति प्रथमा. उत्तरपदे इत्यधिकारः. तत्र षष्ठाध्याये तृतीयपादे, वयं षष्ठाध्यायस्य तृतीयपादे, अलुगुत्तरपदे इति प्रथमं सूत्रम्. तत्र उत्तरपदाधिकारः अस्ति. उत्तरपदे परे उत्तरपदं, समासे पूर्वपदम् उत्तरपदम् इति भवति. उत्तरपदे परे पूर्वपदस्य यानि कार्याणि तानि अस्मिन् अधिकारे उच्यन्ते. मया तद्दिने समासप्रक्रियायाम् उक्तं, पूर्व उत्तरपदयोः विशेषकार्याणि भवन्ति कदाचित्. अतः उत्तरपदे परे, when followed by the उत्तरपद of a समासः, तदा पूर्वपदस्य यानि कार्याणि भवन्ति तानि अस्मिन् अधिकारे उच्यन्ते. उत्तरपदाधिकारः इत्युच्यते. अत्र तदेव उच्यते. अव्ययीभावसमासे कालभिन्ने उत्तरपदे कालवाचकशब्दं विहाय अन्यः कश्चित् शब्दः उत्तरपदमस्ति चेत् किं भवति? सहस्य सः विधिसूत्रमस्ति. सः इति अव्ययस्य, स इति आदेशः भवति. कदा भवति? अव्ययीभावसमासे कालभिन्ने उत्तरपदे. सहस्य सहस्याद् अव्ययीभावे, न तु काले इति सूत्रार्थः. अत्र सः हरि इत्यस्ति किल. सः हरि, सः हरि इति अव्ययीभावसमासः. हरिशब्दः कालवाचकः न. कालवाचकः इत्युक्ते किम्? दिनं, रात्रिः, पूर्वाह्नः अपराह्नः इत्यादि कालवाचक शब्दाः तत्र न भवति अत्र तु कालवाचकं नास्ति अतः सः इत्यस्य स्थाने स इति आदेशः भवति स हरि सूत्रमस्ति अव्ययीभावे साकाले इति अनेन सूत्रेण सस्य सादेशः स हरि अग्रे सुऔजस् इत्यादिना सुप्रत्ययः अदन्तं नास्ति अतः अव्ययादाप्सुपः इत्यनेन सोः लुक् स हरि इति पदं कः विग्रह अर्थः हरेः सादृश्यम् इत्यर्थः अवगतम् अव्ययम् विभक्ति समीप समृद्धि विरुद्धि अर्थाभाव अत्यय असंप्रति शब्द प्रादुर्भाव पश्चात् यथा यथा इत्येतत् पर्यन्तं ज्ञातम् यथा इत्यत्रैव चत्वारः अर्थाः सन्ति योग्यता वीप्सा पदार्थ अनतिवृत्ति सादृश्यानि यथार्थाः इत्यनेन यथा इत्यस्य अर्थेषु सादृश्यरूपः अर्थः अपि अस्ति तस्य उदाहरणमस्ति हरेः सादृश्यं सहरि आनुपूर्व्य यौगपद्य सादृश्य यथा आनुपूर्व्य यौगपद्य आनुपूर्व्यम् अनुक्रमः आर्डर् इत्यर्थः ज्येष्ठस्य आनुपूर्व्येण इति अनुज्येष्ठम् सो इन् द आर्डर् आफ् सीनियोरिटि अनुज्येष्ठम् ज्येष्ठस्य आनुपूर्व्येण अत्र अनु इति अव्ययेन आनुपूर्वी इत्यर्थः आनुपूर्व्यार्थः बोध्यते अनुज्येष्ठम् यौगपद्यम् युगपत् समानकाले इत्यर्थः यौगपद्यम् इत्यस्य एककालता सैमल्टेनियस् इत्यर्थे चक्रेण युगपत् सचक्रम् अत्रापि सः इति अव्ययम् अव्ययीभावे चाकाले इत्यनेन सहस्य स आदेशः सचक्रम् अत्र पुनः सादृश्यम् इत्यस्ति विग्रहः अस्ति सदृशः सख्या सखी इति इकारान्तः पुल्लिङ्गशब्दः सखा सखायौ सखायः सख्या सदृशः सिमिलर् टु हिस् फ्रेण्ड् इत्यर्थे स सखि सादृश्यं सिमिलारिटि गौणम् अत्र यथार्थे अपि सादृश्यमस्ति पुनः सूत्रे अपि सादृश्यमस्ति उभयोः कः भेदः यथार्थे सादृश्यस्य प्राधान्यम् तत्र विग्रहः कथं दत्तः हरेः सादृश्यं सिमिलारिटि इति भावस्य प्राधान्यमस्ति प्रद्युम्ने सहरि दरीदृश्यते वाक्यस्य कः अर्थः सिमिलारिटि टु हरि कृष्ण इस् सीन् इन् प्रद्युम्न प्रद्युम्ने हरेः सादृश्यं दरीदृश्यते तत्र सादृश्यस्य प्राधान्यम् इट् इस् अ गुण सादृश्यरूपस्य गुणस्य प्राधान्यम् अत्र सदृशः सदृशः इत्युक्ते सिमिलर् द डिफरेन्स् बिट्वीन् सिमिलर् एण्ड् सिमिलारिटि यथा गोः गोत्वं गौः गोत्वं गौः इत्युक्ते पदार्थः व्यक्तिः इट् इस् अ द्रव्य गोत्वम् इस् अ प्रापर्टि और् एन् एट्रिब्यूट् आफ् द कौ सिमिलर्लि सदृशः इस् अ पर्सन् हू इस् सिमिलर् a person or a thing it need not be a person but a padartha which is similar whereas sadrishya is similarity ubhayatah api bhedah asti yadi tarkashastram adhitam tarhi bhedah jnayate ekatra dravyasya pradhanyam aparatra gunasya pradhanyam so yathartha purvam yadrishtam harehe sadrishyam iti tatra सादृश्यरूपस्य गुणस्य प्राधान्यं भवति अत्र तु सादृश्ययुक्तं यद्द्रव्यं सो प्रद्युम्नः सहरि सो सामानाधिकरण्यमस्ति प्रद्युम्नः हरिणा सदृशः. प्रद्युम्न इज सिमिलर टू कृष्ण. इन प्रद्युम्न सिमिलारिटी टू कृष्ण इज सीन. पूर्वत्र सहरि उभयत्रापि सहरि इत्येव समस्त पदम्. एकत्र सादृश्यस्य प्राधान्यम्, अपरत्र सादृश्य युक्तस्य प्राधान्यम्. उभयथापि समासः भवति इत्यर्थः. अवगतं वा? भेदः अस्ति, यथार्थे अपि सादृश्यमस्ति, सूत्रे अपि आनुपूर्व्ययोगपद्य सादृश्य इति उच्यते. एकत्र सादृश्यं प्रधानम्, अपरत्र सादृश्यं गौणम् इत्युच्यते. यदि नावगम्यते पुनः 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 शृण्वन्तु, अवगम्यते. देयर इज अ सटल डिफरेंस. शास्त्रे सटल डिफरेंस एव बहु मुख्यं भवति. शास्त्रस्य अध्ययनं चित्त संस्करणार्थम्. सो व्हाई डू वी स्टडी ऑल द शास्त्रस? टू बी एबल टू अप्रिशिएट माइन्यूट पॉइंट्स. सो देयर इज नो पॉइंट इन कंप्लेनिंग दैट शास्त्र निटपिक्स. शास्त्र इज फॉर अंडरस्टैंडिंग वेरी सटल, वेरी माइन्यूट पॉइंट्स. यदा एतादृशैः शास्त्रैः चित्तसंस्कारः भवति, तदा एव वस्तुतः वेदान्तशास्त्रे ये अत्यन्तं सूक्ष्माः अंशाः उच्यन्ते, तेषां ज्ञानं प्राप्तुम् अस्माकं मनः सिद्धं भवति. इन् आर् शास्त्र वि काल् वेदान्त एस् द उपेयशास्त्र. एतत् सर्वं व्याकरणं न्यायशास्त्रम् इत्यादि सर्वम् उपायशास्त्रम्. उपाय इस् अ मीन्स् that which leads you towards the higher truth. Vastutah satyasya darshanam upaya shastrena iva bhavati. Kintu sakshat vedantasya adhyayanam na shakyate, because we are not yet prepared to understand the very sukshma points. Tadartham citta samskaraha anyehi shastraihi kriyate. Atah sarvatra shastre we should make an effort to appreciate the very small points or the very minor points. यथा यथा तेषाम् अवगमनं भवति, तदा चित्तं सूक्ष्मं भवति. सदृशः सख्या, अत्रापि प्रक्रिया समानरीत्या भवति. सखि ता सः इति अलौकिकविग्रहः. अव्ययं विभक्ति इति अव्ययीभावसमासः. सुब्लुक् पूर्वनिपातः. सः सखि इदानीम् अव्ययीभावे च काले इत्यनेन सः इत्यस्य स आदेशः. ससखि सु औजस् इत्यादिना सुप्रत्ययः. अव्ययादाप्सुपः इत्यनेन लुक्. ससखि इति रूपं समस्तं पदम्. अव्ययं विभक्ति समीप समृद्धि वृद्धि अर्थाभावाच्चया सम्प्रति शब्द प्रादुर्भाव पश्चाद्यथा आनुपूर्व्य यौगपद्य सादृश्य संपत्ति साकल्य अंतवचनेषु. वी आर फाइनली रीचिंग द एंड ऑफ द सूत्र. संपत्ति अनुरूपः आत्मभावः इत्युच्यते. संपत्ति शब्दस्य सामान्यतः वेल्थ इत्यर्थः भवति, किन्तु अस्मिन् सूत्रे अनुरूपः आत्मभावः इत्युक्ते क्वालिटी विच इज इनहेरेंट. इनहेरेंट क्वालिटी यथा क्षत्राणां वीर्यम् एव आत्मभावः. सो क्षत्राणां सम्पत्तिः सक्षत्रम् इत्युक्ते अत्यन्तं वीर्यं, वीर्यादयः क्षात्रगुणाः यत्र सम्यक् विद्यन्ते तत्र सक्षत्रम् इति प्रयोगः. अस्तु, समापयामः. द्वादशवादने अन्यः वर्गः अस्ति. ऐ जस्ट् फिनिश् दिस् अण्ड् विल् गो अहेड् इन् द नेक्स्ट्. Sorry for the delay from my end. Athava etad agre pashyamah, eto hi agre visheshah api asti vastutah. Nana, chinta nasti. Atra thagayamah, agrima varge, we will do the other ones and see further. So agrima vargartham, सो अद्य भिन्नेषु अर्थेषु अव्ययीभावसमासस्य उदाहरणानि दृष्टानि. अग्रिमवर्गार्थम् अव्ययीभावसमासस्य पञ्च उदाहरणानि सविग्रहं लिखत योर् ओन् एक्साम्पल्. तत्र पुस्तके यानि उदाहरणानि सन्ति तानि उदाहरणानि न अन्यानि कानिचन उदाहरणानि. ट्रै टु थिङ्क् आफ् अदर् एक्साम्पल्स् आन् सिमिलर् लैन्. पञ्च उदाहरणानि विग्रहवाक्येन सह. इच्छाम् अनतिक्रम्य, अत्र समस्तपदं कथं भवति, प्रक्रिया कथं भवति. इच्छाम् अनतिक्रम्य इत्यत्र समस्तपदं सप्रक्रियं दर्शनीयम्. प्रतिवृक्षं सिञ्चति, अत्र कस्मिन् अर्थे अव्ययीभावः, सप्रमाणं लिखत. एतत्तु न कृतं नदीभिश्च. एतेषां त्रयाणां प्रश्नानां ह्यस्तनप्रश्नानां च उत्तरं लिखित्वा प्रेषयन्तु. येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. तत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्.